तुलाकालिकेयम् भुजे वामयुग्मे शिरोसि दधाना वरं दक्षयुग्मे भयं वै तथैव सुमध्यापि तुङ्गस्तनाभारनम्रालसद्रक्कसृक्कद्वया सुस्मिता स्यात् शवद्वन्द्वकर्णावतं सा सुकेशीरसत्प्रेतपाणि प्रयुक्तैरकाञ्ची शवाकारमञ्चाधिरूढा शिवाभिश्चतुर्दृष्टशब्दायमानाभिरेजे निरिञ्चादिदेवास्त्रयस्ते गुणांसी समाराध्यकाली प्रधाना बभू अनादिम् सूरादिम् अघादिम् भवादिम् स्वरूपम् त्वरीयम् न विन्दन्ति देवाः जगन्मोहनीयम् तु वाग्वादिनीयम् सुहृद्योषिणी शत्रुसंहारणीयम् वचस्तम्भनीयम् किमुच्चाटनीयम् स्वरूपम् त्वदीयम् न विन्दन्ति देवाः इयं स्वर्गदात्री पुनः कल्पवल्ली मनोजां तु कामा यथार्थं प्रकुर्यात् कथा ते कृतार्था भवन्तीति नित्यं स्वरूपं त्वदीयं न विन्दन्ति देवाः सुरापानमत्ते सुभक्तानुरक्ते लसद्भूतचित्ते सदाविर्भवस्ते जपध्यान पूजा सुधाधौ तपङ्का स्वरूपं त्वदीयं न विन्दन्ति देवाः चिदानन्दकन्दं हसन्मन्दमन्दं शरच्चन्द्रकोटिल् प्रभाकुञ्जबिम्बम् मुनीनां कवीनां हृदि द्योतमानं स्वरूपं त्वदीयं न विन्दन्ति देवाः महामेघकाली सुरक्तापि शुभ्रा कदाचिद्विचित्रा कृतिर्योगमाया न बाला न वृद्धा न कामातुरापि स्वरूपं त्वदीयं न विन्दन्ति देवाः क्षमस्वापराधं महागुप्तभावं मया लोकमध्ये प्रकाशीकृतं यत् तव ध्यानपूतेन चापल्यभावा स्वरूपं त्वदीयं न विन्दन्ति देवाः यदि ध्यानयुक्तः पठेद्यो मनुष्यस्तदा सर्वलोके विशालो भवेच्च गृहे चाष्टसिद्धिर्मृते चापि मुक्ते स्वरूपं त्वदीयं न विन्दन्ति देवाः स्वरूपं त्वदीयं न विन्दन्ति देवाः स्वरूपं त्वदीयं न विन्दन्ति देवाः।